कर्मण कर्तव्यं धर्मार्थमपि केनचित् सस्वामी काष्ठपुष्पादि न ग्राह्यं तदनाग्नया।